एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रवेश शुल्क विभागेन परीक्षणेन विना त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् आसन्न शत केजी परिमाणस्य सुवर्णस्य वैरभवनमनु अनुसन्धान समितिः संगठिता वर्तते। प्रवेश शुल्क विभागस्य अनुसन्धान शाखाया निर्देशकस्य मानबहादुर पौडेलस्य संयोजकत्वे षट् सदस्यीया अनुसन्धान समिति संगठितेति सूचनाधिकारी पुण्य विक्रम खड्का अज्ञापयत। समितिरियम् अनुसन्धानम् विधाय पञ्चानाम् दिनानाम् अभ्यन्तरे आवश्यक प्रतिवेदनम् प्रस्तुतम् निर्दिष्टा वर्तते। अत्रान्तरे सुवर्ण तस्करस्य प्रकरणे संलग्नतायाः आरोपेण ह्य त्रिभुवनान्तर्राष्ट्रिय विमानस्थलात् एकः चीनदेशीयो नागरिकः निगृहीतोऽस्ति। निगृहीतः चीनदेशीयो नागरिकः जेयुङ लिन अस्तीति विमानस्थल सुरक्षा कार्यालयस्य पर्यवेक्षकः पदम बहादुर विष्टः अज्ञापयत्। एतस्मिन् प्रकरणे पाटनवर्तिना उच्च न्यायालयेन सुवर्ण तस्करीय संलग्नतायाः आरोपेण बुधवासरे निगृहीतान् षड्जनान् दशदिनानि निगरणे एव संस्थाप्य अनुसन्धातुम् अनुमतिः प्रदत्ता वर्तते। एतस्य न्यायालयस्य रजिस्ट्रार पदीयस्य ठगेन्द्र कट्टेलस्य अनुसारेण निगृहीतान् षड्जनान् बन्दिनो विधातुम् न्यायालयेन अनुमतिः प्रदत्ता अस्ति। सामान्यावस्थायाम् अधिकतमम् सप्तदिनानि निगृह अनुसन्धानार्थम् अनुमतिः प्रदीयमाना सत्यपि सुवर्ण तस्करस्य न्यायिक प्रकरणम् जटिलम् विशेष प्रकारकम् चास्तीति हेतोः दशदिनानि बन्दिनो विधाय अनुसन्धातुम् अनुमतिः प्रदत्ता अस्तीति असौ अवोचत्। एवमेव न्यायालयेन सुवर्ण तस्करेण सम्पृक्तानाम् अन्येषाम् जनानाम् कृतेऽपि अत्यावश्यक निग्रहणपत्रम् च प्रदत्तमस्तीति असौ अगदत्। सुवर्ण तस्कर्य प्रकरणे इतःपूर्वम् निगृहीतेषु ट्याक्सीयानस्य चालकः अशोक राणा मगर, प्रवेश शुल्क प्रतिनिधिः राजेन्द्र कुमार राई, रेडी ट्रेड प्राली संस्थाया संचालकः दिलीप भुजेलः, सहयोगिन हर्कराज राई, थुकपिन छिरिङ, राजकुमार भुजेलश्च सन्ति। विभागेन बुधवासरे त्रिभुवनान्तर्राष्ट्रिय विमानस्थलवर्तिनः प्रवेश कार्यालयस्य पुरतः आसन्न शत किलो परिमाणस्य सुवर्णम् निगृहीतम् आसीत्। प्रवेश शुल्क कार्यालयात् बहिरानयनस्य क्रमे विभागस्य समूहेन ट्याक्सीयानेन सह जनद्वयम् निगृहीतम्। तदनु रात्रौ एव अतिरिक्ताः चत्वारो जनाः निगृहीताः आसन्। सुवर्णमिदम् हङकङ स्थानात् रेडी ट्रेड प्राली संस्थायाः नाम्नि आनितमिति ज्ञातम् वर्तते। अत्रान्तरे राजस्व अनुसन्धान विभागेन आसन्न शत किलो परिमाणस्य सुवर्णस्य तस्करीय संलग्नता दृष्टेति निगद्य अतिरिक्ताः त्रय सामग्री परिवहन संस्थानाम् संचालकाः निगृहीताः वर्तन्ते। यस्याः नाम्नि सुवर्णम् आनीतम् तस्याः एव संस्थायाः सामग्रीणाम् इतः पूर्वमपि नयनानयन कार्ये सक्रियता दर्शनात् ते निगृहीताः इति विभागस्य महानिर्देशकः नवराज ढुङ्गाना अवदत्। गत सायम् निगृहीतानाम् सामग्री परिवहन सेवा संस्थानाम् संचालकानाम् नामानि विभागेन सार्वजनिकृतानि न सन्ति। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमितेः उपवेशे ह्य 35 केन्द्रीय सदस्याः धारणाः उपस्थापयन्। सानेपा वर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टे उपवेशे ह्यो भाषमाणाः केन्द्रीय सदस्याः दलाभ्यन्तरम् समूहम् व्यक्तिवादी चिन्तनम् च समाप्य सामूहिक निर्णयस्य आधारेण अग्रे वर्धनार्थम् नेतृत्वम् अन्वरुन्धन्। कोशी प्रदेश नामकरणस्य, सर्वकार संघटनस्य, कृत्रिम भूटान देशीय शरणार्थी प्रकरणस्य, भ्रष्टाचारस्य च विषयेषु दलस्य धारणायाः सार्वजनिकरणम् अभियाचमानाः केन्द्रीय सदस्याः राष्ट्रिय विषयेषु मतैक्यम् सन्धार्य जनतायाः समक्षम् गन्तुम् बलम् प्रादुः। केन्द्रीय सदस्याः दल नेतृत्वस्य विभाजनस्य हेतोः गत मंगलवासरतः सञ्चल्यमानस्य उपवेशस्य प्रारम्भे दलस्य महामन्त्रिणा गगन कुमार थापाभिधेन प्रस्तुतायाः कार्यतालिकायाः क्रियान्वयने शंका उद्भूतेति अवदन्। उपवेशे केन्द्रीय सदस्याः आर्थिक मान्द्यावस्थायाः देशाय समाधान प्रदानाय यूनाम् कृते स्वदेशे एव वृत्त्यवसरान् सृष्ट्वा जीवनयापनाय एव विदेश गमनावस्थायाः अन्ताय च दलेन प्रभावकारिणी भूमिका निरूढव्या गोवंशे महामार्याः रूपेण प्रसृतेन लम्पिस्क्रिन् रोगेण पीडितेभ्यः कृषकेभ्यः सहायता प्रदानार्थं प्रयतनीयं चेति सामयिक विषयान् च उपस्थापयन्। उपवेशे विमर्शनाय प्रस्तुताम सामयिक राजनीतिकार्थिक सामाजिक विषय सहिताम दशसूत्रीयाम कार्यसूचीम विभिन्नानाम समितिनाम पक्षतः प्रस्तुतानि प्रतिवेदनानि च आधृत्य केन्द्रीय सदस्यानाम धारणाभिव्यक्तिक्रमः अविच्छिन्नो वर्तते। अद्य पूर्वाह्नस्य एकादशवादने उपवेशः पुनर्वसति यत्र अवशिष्टैः केन्द्रीय सदस्यैः स्वधारणा अभिव्यज्यते इति नेपाली कांग्रेस दलम् ज्ञापयति। वर्तमान आर्थिक वर्षस्य वार्षिकायव्ययकस्य प्रभावकारिणे क्रियान्वयनाय अर्थमन्त्रालयेन सर्वेभ्यः मन्त्रालयेभ्यः विभागेभ्यः निकायेभ्यश्च एकाशीति सूत्रात्मकम् आयव्ययक क्रियान्वयन मार्गदर्शनम् प्रकाशितम् वर्तते। आयव्ययकस्य लक्ष्याणाम् उद्देश्याणाम् च प्राप्तये स्रोतसाम् अधिकतमोपयोगाय व्ययस्य मितव्ययितायै प्रभावकारितायै दक्षतायै च अर्थमन्त्रालयेन एवं निर्दिष्टमस्ति। एवमेव समग्र वित्तीय अनुशासनेन सह विद्यमानानां नियमाधिनियम विधीनां व्यवस्थायाः पालनायै अपि मार्गदर्शनद्वारा सर्वकारेण निर्देशनं प्रदत्तमस्ति। वर्तमान आर्थिक वर्षस्य आयव्ययके निर्धारितानां योजना कार्यक्रमाणां पूर्वकार्याणि शीघ्रं समापयितुम् अर्थमन्त्रालयेन निर्दिष्टं वर्तते। स्वीकृत वार्षिक कार्यक्रमाणां मध्ये आयोजनानां पूर्वकार्यस्य चरणं प्रपूर्य कार्यक्रमाणाम् आयोजनानां च त्रैमासिक विभाजनेन सहितां वार्षिक क्रयण योजनां विस्तृत संरचनां व्ययानुमानञ्च कृत्वा आगामिनम् आश्विन मासान्तं यावत् स्वीकृत्य च आह्वानपत्रस्य प्रकाशनस्य कार्यमपि समापनीयमिति मार्गदर्शने उल्लिखितमस्ति। आगामिनः कार्तिक मासस्य अभ्यन्तरे आह्वानपत्रस्य मूल्याङ्कनं विधाय अनुबन्धन संविदा च विधातव्या। अनुबन्धन संविदायाः पञ्चदश दिनानाम् अभ्यन्तरे कार्यस्य प्रारम्भणत्वेन कार्यादेशश्च प्रदातव्यः। आगामिनः कार्तिक मासस्य अन्तं यावत् अग्रे अवर्धापितानुबन्धन प्रक्रियाणां योजनानां कार्यक्रमाणां च आयव्ययकम् अवरोत्स्यते इति अर्थमन्त्रालयेन ज्ञापितमस्ति। राष्ट्रियसभायाः ह्यस्तनोपवेशेन एतद् विक्रमवर्षीयं वैद्युत व्यापार विधेयकं सूत्रगत विमर्शनाय विधायन व्यवस्थापन समितौ प्रेषितमस्ति। उपवेशे उद्योग वाणिज्यापूर्ति मन्त्रिणा रमेश रिजालेन समितौ प्रेषणीयमिति उक्त्वा प्रस्तुतः प्रस्तावोऽसौ सभया सर्वसम्मत्या स्वीकृतोऽस्ति। राष्ट्रियसभायाः अपरोपवेशः अस्यैव श्रावणस्य एकादशे दिवसे बृहस्पतिवासरे पूर्वाह्नस्य एकादशवादने अवस्था। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति उपभोक्तृ अधिकारस्य उल्लंघनाय स्वच्छापण प्रवर्धने जायमानायै अवस्थायै च सर्वकारः सौविध्यं न ददाति। उपभोग्य वस्तूनां सहजोपलब्धेः प्रवेश शुल्क वञ्चनस्य चौर्य निर्यातायातस्य च विषयेषु गृहमन्त्रालये ह्य आयोजिते विमर्शने असौ अवोचत् उपभोक्तृहितं केन्द्रे निधाय सर्वकारः अग्रे प्रवर्धते। असौ अकथयत् सम्बद्धैः सर्वैः पक्षैः सह विमृश्य गमनं प्रभावकारी विधीयते। उद्योग व्यवसायो क्षेत्रे विद्यमानायाः अनियमिततायाः उचितरीत्या अनुगमनम् आवश्यकम् अस्ति इति भासमाणः गृहमन्त्री श्रेष्ठ व्यवसायिभिः संयमानाः समस्याः समाधास्यन्ते इति समस्पष्टयत्। संघीय विषय सामान्य प्रशासन मन्त्री अमनलाल मोदी सेवाग्राहिणां रूपेण आगतानां आगतेभ्यो कर्मचारिभ्यो विना विभेदेन सेवा प्रवाहं विधातुं निर्दिशति। मन्त्री मोदी ह्य सर्वकारीय राष्ट्रिय किताबखाना कार्यालयस्य आकस्मिकानुगमनं विधाय सेवायां विभेदकर्तारः जनतायै दुःख प्रदातारश्च कर्मचारिणः दण्ड्यन्ते इति प्रत्यादिशत्। अनुगमनस्य क्रमे मन्त्रिणा मोदिना सेवाग्राहिणो रूपेण किताबखाना कार्यालयं प्राप्तेभ्यः कर्मचारिभ्यः सेवा वितरणे वेदनायां सत्यां तत्सूचयितुमपि निर्दिष्टमस्ति। कर्मचारिणः यथासमयं कार्यालयं नागच्छन्ति, सम्पूर्ण समयः कार्यालये न तिष्ठन्तीति च वेदनायाः प्राप्तेः अनन्तरम् आत्मना आकस्मिकरूपेण निरीक्षणं विहितमिति सूचयन् मन्त्री मोदी नगरेषु सौविध्ययुक्तेषु च स्थानेषु एव विद्यमानानां कर्मचारिणां चक्रीय प्रणाल्या दुर्गमस्थलेषु अपि स्थानान्तरणं विधास्यते इति अज्ञापयत्। प्रधानमन्त्रिणा पुष्पकमलदाहाल प्रचण्डेन सह नेपालस्य कृते कतार देशस्य राजदूतः युसुफ बिन मोहम्मद अल हेल ह्य शिष्टाचार मेलवार्ताम् अकरोत्। मेलवार्ताया क्रमे अनयोर्मध्ये देशद्वयस्य मध्ये विद्यमानस्य सुमधुर सम्बन्धस्य विस्तारस्य पारस्परिक सहयोगस्य आदान प्रदानयोश्च विषययोः विमृष्टमिति प्रधानमन्त्रिणः सचिवालयेन ज्ञापितम् वर्तते।